यन्द्रो जुषे यच्चवष्टितन्नो महान् करति सुष्म्याचीत् ब्रह्मस्तोमम् मघवासोम मुक्तायो अस्माहानम् समसा बिभ्रतेति ऋषावृषम् धिम् चतुरश्रिमस्यन्नुग्रो बाहुभ्याम् नृतमस्वजीवान् श्रिये परुष्णे मृषमानपूर्णाम् यस्याः पर्वाणि सख्याय विद्मे यो देवो देवतमोजायमानो महोवाजेभिर्महद्भिश्चतुष्मैः दधानो वज्रम् बाह्वो रुसन्तम् यामनेन रेजयत्प्रभूम विश्वारोधांसि प्रपतश्च पूर्वेद्यौर्विश्वाजनिमन्द्रेज दक्षाः मातराभरति सुष्म्यागोन्बृहत्परिज्वन्नोऽनुबन्धवादाः सारूद इन्द्रमहतो महानिविश्वेष्वित्सवनेषु प्रवाच्याः यच्छूरधृष्णो धृषदाद दृष्ट्वा न हिंवज्रेण सभसा विवेशीः राजूते सत्यातो विन्वम् न विश्वा प्रधेनवस्य स्रते वृष्णबूध्नाः हताहद्रेण मनोऽभिजाना प्रसिन्धभोजवसा चक्रमन्त अत्राह ते हरिवस्ताबु देवीरवोऽभिरिन्द्रस्तवन्तः स्वसारः यच्छेमनो प्रमजो बद्वधाना दीर्घामनो प्रसीदम् चन्दयध्यैरेयम् सर्वध्यो न सिन्धुरात्वा समीसमानस्य शक्तिः अस्मद्रक्षु सुजानस्य यम्या आसुन्नरस्मिन् दुव्योज सङ्गोः अस्मे वरिष्ठागृणहि ज्येष्ठा गृह्णानि सत्रा सहुरे सहांसि अस्मभ्यम् वृत्रा सुवनानिरन्धि जगवधर्वर्षो मत्यस्य अस्माकमित्सुर्णहि त्वमिन्द्रास्मभ्यम् चित्राङ्गुपमाहि वाजान् अस्मभ्यम् विश्वायिषणः पुरम् धीरमागम् सुमाघवन् बोधि गोदाः नोष्टुत इन्द्रणो गृणानयिषम् चरित्रे नद्यो नीपेः अकारिते हरिवो ब्रह्मणव्यम् धिया स्यामरथ्यस्वदासाः